अथ नवमोऽध्यायः नन्दिकेशर उवाच अहमेव प्रभुरिति प्ररूढाधिकगर्वयोः विरिञ्चच्युतयोरासीत् विवादो मोहसम्भवः रजो विकाराभ्यधिको बाह्ये नील इवोत्थितः विश्वसृष्टिकरो विष्णुम् विरिञ्चो ब्रूत गर्वतः ब्रह्मोवाच कथम् त्वमधिकश्चासि विष्णो जनयितुर्मम पितामहस्य लोकानाम् किमेवमतिमोहितः त्वत्त एवोदितौ दैत्यौ निहत्यमथु कैडपौ दैत्यारिदिति मुग्धत्वम् गर्वम् वहसि केशव त्वामेव सृजतो नित्यम् बहुधा मम वेधसः अध्याप्यायासजाम् पीडाम् न परित्यजतः करौ मम श्रमाम्भसोद्भूते महाम्बोधौ निमज्जतः नय्यग्रोधम् न चोत्पन्नम् कुतस्तेस्त्ववलम्बनम् मधुपत्न्ये महाम्बोधौ स्रवते कोऽपि पन्नकः तदाश्रयस्त्वमूर्ध्वम् ते पद्मम् तच्चासनम् मम कुतस्तमोमये ब्रूहि त्वयि सत्त्वगुणोदयः सवेत्सि किम् त्वम् प्रकृतिम् निद्राजडिमनिर्भरः जलाशये प्रस्वपता दैत्यभीत्या जनार्दन कथम् त्वया रक्षितासौ मदधीना जगत्त्रयी चतुर्भ्यो मम वक्त्रेभ्यो वेदा समुदयम् गताः चैतन्यरूपिणी शक्ति कलत्रम् मे सरस्वती मया हि सृज्यते विश्वम् इदम् स्थावर जङ्गमम् रक्ष्यते च तदिन्द्राद्यैर्मामकैः पुत्रपौत्रकैः ततः कथय वैकुण्ठ मन्नियोज्येषु कश्चन जगदामीश्वरान्मत्त कथम् नामातिरिच्यसे नन्दिकेशर उवाच इत्थम् सरोषसंरम्भे विधौ पौरुषभाषिणि नारायणोऽपि सासूयम् स्मित्वैवम् समभाषत विष्णुरुवाच विरिञ्जे मुञ्जसंरम्भम् वृथा खलु विकथसे नाभि सरोज सञ्जातो मम त्वम् अवधारय योगनिद्रामयोन्मुच्य पुराहमधु कैठभौ न चेद्यन्मथितौ ताभ्याम् तथैव स्या प्रणाशितः सोमक प्रमुखान् दैत्यान् हन्तुमात्मेच्छया मम धृतमत्स्यादिरूपस्य को वान्यसृष्टिकारणम् न किञ्चिदपि पश्यन्ति रजसारूढदृष्टयः रजोमयेन भवता किम् निरूपयितुम् क्षमम् अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी यस्या कडाक्षमात्रेण जगत्त्रितयमेधते भूतान्यमूनि कालेयम् आत्मनोऽप्यहमेव हि मया विरहितम् किम् वा त्रिषु लोकेषु विद्यते आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् भूर्भुवस्वस्त्रयीमेनाम् मदधीनाम् विचिन्तय ममैव विनियोगेन सृष्टिशक्तिस्वयम् स्थिता तन्मे त्रैलोक्यनाथस्य किम् त्वम् ज्येष्ठः समोऽथवा नन्दिकेशर उवाच एवम् मोहान्धमनसो रण्योन्यम् प्रति गर्जतोः ययावनल्पसमयः संवर्थः सदृशस्तयोः उदयास्तमयौ स्याताम् न तदा चन्द्रसूर्ययोः नक्षत्राणि च ताराश्च ग्रहाश्च क्षीणताम् ययुः नाववुर्मरुतो वान जज्ज्वलुर्जातवेदसः नान्तरिक्षम् न चक्षोणि न दिशोऽपि च काशिरे समुद्राश्चुक्षुभुः सर्वे पर्वताश्च च कम्पिरे औषध्यः शोषमासेदु रवसेदुश्च जन्तवः पक्षमासर्तु वर्षादि कालस्य नियमो गतः अहोरात्रव्यवस्थापि प्रणाशं समुपाययौ इन्द्रादयो लोकपाला मरीच्याद्या महर्षयः सर्वेऽप्यकाले सम्प्राप्तं कल्पान्तं मे निरे तदा एवं जाते महाक्षोभे भूताक्रन्दप्रचोदितः भूतनाथो जगज्जात मविद्यायामबुध्यत व्यचिन्तयच्च विश्वात्मा विश्वसंरक्षणोद्यतः अबाह्यायादृशा पश्य धनयोर्मोहकारणम् स्वामिनं सकलैश्वर्य दातारं मां मदोत्थतौ विस्मृत्य स्वं स्वमेवैता वमंसेतां जगत्प्रभु अहो मोहस्य माहात्म्यं यदिमौ द्रुहिणाच्युतौ जानानामवपि मां सम्यग् अभूतामेवमुद्धतौ अज्ञानतिमिरोद्भूति दूषिताशयलोचनः जनः प्राप्तं स्तुतिमपि प्रायो वस्तु न पश्यति कृतापराधावप्येतौ निमग्नो मोहसागरे मया नोपेक्षणीयौ हि लोकानां हितकाम्यया इति निश्चित्य मनसा माया वैवश्यमेतयोः देवोदया महां बोधिर्व्यपोहयितुमैहत अहोनुकम्पा तरुणेन्दुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन् असौ प्रमोहाम्बुधिमध्यतो भूत् आविर्निरस्तावभिधातृविष्णु इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे ब्रह्मविष्णुविवादवर्णनं नाम नवमोऽध्यायः अथ दशमोऽध्यायः मार्कण्डेय उवाच आज्ञापय विभो मह्यं यथा शम्भुः सनातनः अनुजग्राहमोहान्धौ वैकुण्ठपरमेष्ठिनौ नन्दिकेशर उवाच शृणुष्व सर्वं वक्ष्यामि विस्तरेण यथा तथं यदेव देवो विदधे दयाया भक्तवल्सलः अथो दस्तात्तयोर्मध्ये तथा विवदमानयोः ज्योतिस्तम्भत्वमभ्येत्य रोदोरन्ध्रनिरोधकः महता जृम्भमानेन तस्य ब्रह्माण्डभेदिनः अन्तरिक्षमतिश्यामं समुक्षिप्तमिवाभवन् विश्वविवर्णता तस्य ज्योतिर्लिङ्गस्य तेजसा दिशो विरेचिरे सद्यो दूरविस्तारिता इव तीव्रैस्तस्य महाज्वालै शोषिता इव सागराः विमुक्तवीचि संक्षोभाः स्वामेव प्रकृतिं ययो व्यद्योतन्ददिविप्राग्वद् ग्राहास्तारागणैः सह तेजस्तम्भात् समुद्भिन्ना स्फुलिङ्गा इव केचन तेजसा तस्य शोणेन गौरिकेणेव रञ्जिता भौम रविश्रियं सर्वे व्यवहन्नवनीभृतः समुद्रास्तत्प्रतिच्छाया निर्भराश्लिष्टयादसः पद्मरागशिलाखण्डे घटिता इव रेजिरे प्रवालगुच्छै प्रत्यग्रे लम्बिता इव पादपाः नद्यश्च निर्भरोद्भुल्ल कल्हारा इव रेजिरे మహీ కుంకుమలిప్తేవ దిశ సింధూరిత ఇవ సర్వారుణమివ వ్యోమ సమంతాత్ ప్రత్యదృశ్యత బ్రహ్మాండకర్పరమభూత్ తన్మహపూరితాంతరం శోణితేనేవ సంపూర్ణం కపాలం కృత్తివాససః ఏవం ప్రవర్ధమానేన తేజస్తంభేన తేన చ అరుణాకారతాం భేజే విశ్వం స్థావర జంగమం తేజోలింగం తదాశ్చర్యం దృష్ట్వా త్యక్తమిధ కృథౌ అచింతయేతామేకైకం చతుర్ముఖ చతుర్భుజౌ కిమేష వసుధాం భిత్వా శేషాదీనాం ఫణాపృతాం ఫణామాణిక్యమహసాం రాశిరున్ముఖతాం గతః కిం వా కల్పాంతసులభ ప్రాదుర్భావ ప్రభాకరాః ద్వాదశాపి నభో భూమ్యోర్మధ్యేయుగపదుద్ధితాః ఆహోస్విన్మేఖ సంఘర్ష ద్వితతా వ్యోమమధ్యతః అన్యోన్యం మిలితా క్షిప్ర నిపతంత్యవనీతలే ప్రతిఘ్నేష తేజోభి రక్ష్ణో శక్తిమనుక్షణం స్వనిర్విశేషతా శేష భూతజాల ప్రవర్ధతే ఏష ఉద్దీప్యమానోపి సంతాపాయన కల్పతే నేదీయాంస్యపి భూతాని న నిర్దహతి వన్నివ ఏతస్య కాంతి సంక్రాంత్యా జగదేవ న కేవలం మదీయమపి శోణత్వం అనుప్రాప్తమహో వపుః తస్మాదేశ సముత్పన్నః కిమూల కిముపాధికః కుతస్త్య కిముపాదాన కయా శక్త్యా ప్రకాశతే కియానబధిరేతస్య విశ్వక్తిర్యగతోర్ధ్వతః అవగాఢశ్చ పాతాళం కియన్మాత్రమసావితి తదేతదఖిలం జ్ఞాతుం మనఃపర్యుత్సుకం ముహుః ఇచ్ఛత్యుత్పతితుం వ్యోమ ప్రవేష్టుం చరసాతలం ఇతి చిందాభరాక్రాంతౌ తేజస్తంభావలోకనాత్ ఉభావప్యకు అవకులితౌ వైకుంఠ పరమేష్ఠినౌ అభాషత చ గోవింద సుతరామేవ గర్వితం హిరణ్యగర్భమాలోక్య స్మయమానముఖంబుజః విష్ణురువాచ అయమేవావయోర్బ్రహ్మన్ అన్యోన్యోత్కర్షకాంక్షినో సత్యమేవ పరీక్షాయై నికషః సముపస్థితః అముష్య తేజసాం రాశేరపరిచ్ఛేద్య సంపదః ఆద్యంతౌ జ్ఞాతుమేకేన న శక్యం ధ్రువమావయోః యత్పశ్యేన్మూలమగ్రం వా తేజసోస్య స్వయంభువః స ఏవ నావభ్యథికో జగతాం నాథ కోపి సః నందికేశ్వర ఉవాచ ఇత్యుభావపి వినిశ్చితాశయౌ మూలమగ్రమపి తస్య వీక్షితుం తేజసోతి మహతో బభూవతు స్పర్ధయా విరచితోద్యమౌమితః ఇది శ్రీస్కాందే మహాపురాణే ఏకాశీతి సహస్రం సంహితాయాం ప్రథమే మాహేశ్వరఖండే శ్రీ అరుణాచల మహాత్మ్యే ఉత్తరార్ధే బ్రహ్మ విష్ణవోర్మధ్యే తేజోమయలింగ ప్రాదుర్భావ వర్ణనం నామ దశమోధ్యాయః అథ ఏకాదశోధ్యాయః నందికేశ్వర ఉవాచ అథ హంసాకృతిం వ్యోమ పదవీలంఘనక్షమాం భేజే విరింజస్తస్యాగ్రం ద్రక్ష్యామీతి కృతోద్యమః జగ్రాహ విష్ణుర్వారాహం విగ్రహం దృఢ విగ్రహః విశ్వంభరా వినిర్భేద క్రీడాసులభ వైభవం మూలం తస్య పరిజ్ఞాయ ప్రత్యావర్తితుముత్సుకః కృత్రిమస్తబ్ధరో మైష దంష్ట్రాభ్యామభి నన్మహీం విదారయన్ సపోత్రేణ हूतधात्रीमवाङ्मुखः महावराहो ददृशे तेजस्तम्भम् न मन्निव क्रीडाक्रोडकठोरेण कण्ठघोषेण पूरयन् पातालम् बहुलोत्साहः प्रवेष्टुमुपचक्रमे विवेश यत्र यत्रासौ तत्र तत्र तथास्थितम् अवैक्षिष्टानलस्तम्भम् तमेव कुहनाकिटिः विदारितान्महीरन्ध्रान् प्रत्यदृश्यन्त भोगिनः प्ररोह इव शेषाद्या तेजस्तम्भस्य केचन प्रत्यदृश्यत हे माद्रेर्मूलकन्द इव स्थितः आधारताम् गतो दृष्टो ह्यच्युतेनादिकच्छपः आराद्वसुन्धरा गुल्फे धुरन्धरतया स्थिताः दिक्सिन्धुराश्च दृश्यन्ते मदमन्धरबन्धुराः मथुद्विषा च स महान् मण्डूकोऽपि विलोकितः अखण्डमण्डलम् भूमेर्यस्य पृष्ठे प्रतिष्ठितम् आधारशक्तिमपि ताम् अभ्यपश्यदथोक्षजः यदनुग्रहतः शेष कूर्माद्या अपि धूर्वः अतलम् वितलम् चैव सुतलम् नितलम् तथा तलातलम् च प्रतलम् महातलमिति क्रमात् ददर्श सप्तपातालान् अपि वारिजलोचनः तत्रत्यान् विविधाकारान् सर्वानपि सविस्मयः अत्यगाद्भोगवत्याख्याम् पुरी वैरोचनीमपि जगाहेन्यांश्च दैत्यानाम् आवासानतिगह्वरान् इदम् दृष्टमिदम् दृष्टम् इत्युपारूढकौतुकः मूलम् मुग्धाशयस्तस्य विचिनोति स्म माधवः अथस्तादपि गाढेन पयोधेस्तेन पोत्रिणा तथैव तेजस्तम्भः स निर्विकारमवैक्षत दलिता केवलम् पृथ्वी पाथोराशिर्बिलोलितः नैवालोक्यत तन्मूलम् कोलरूपेण विष्णुना इत्थम् वर्षसहस्राणि भ्रान्त्या सम्भ्रान्तमानसः नालम्बभूव तन्मूलम् लीलाक्रोडो विलोकितम् अवरुग्नखुरक्षुण्ण दंष्ट्रो विध्वस्तद्विग्रहः भग्नपोत्रः स भूदारो जगाहे बहुलम् श्रमम् शान्त्या निःश्वसतस्तस्य तादृग्दर्पो विशृङ्खलः न नाशतक्षणत् साकम् तन्मूलावेक्षणेच्छया अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सुकः न च क्षमे सरोजाक्षश्चलितुम् च पदात्पदम् श्रमान्धचक्षुषस्तस्य पातालान्तरवर्तिनः तत्तेज एव पन्थानम् पुनरप्युदभावयन् कथम् कथञ्चिदुत्तीर्णोऽप्यकूपारादपारतः स्वेदाम्भस्सागरस्रावे मग्नोऽभूच्छद्मशूकरः रज्वेव तेजस्तम्भस्य प्रभया सानुबद्धया लब्ध्वा चलम् वनम् कष्टम् न्यवर्तिष्टजनार्दनः नावैक्षियन्मया मूलम् अमुष्यमहसाम् निधेः ततः स्रष्टापि नो दृष्ट शिरोभागः कथञ्जन अमुष्यमहसाम् राशेः प्रागभूद्यत्र सम्भवः ततो निवृत्य यास्यामि शरणम् शिवमीश्वरम् स हि विश्वाधिको देवश्चिरम् मोहान्धचक्षुषा यद्विस्मृतो मया तस्माद् उर्विपाको जनीदृशः एवम् विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः तमेव देशम् प्रबभूव यत्र स्तम्भः स तेजोमयताम् दधानः इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्रां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्धे विष्णुना लिङ्गाधोभागशोधनवर्णनं नाम एकादशोऽध्यायः। अथ द्वादशोऽध्यायः। नन्दिकेश्वर उवाच, ततस्तेजोमयं स्तम्भम् अनुसृत्य पितामहः उत्पपातोन्मुखो वेगान् निरालम्बे नभस्थले द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः व्यशीर्यन्तसमुद्धर्ता प्रणुन्ना इव वायुभिः स वेगादुत्पदन् दूरम् नाक्ष्णो विषयतामगात् केवलम् दीर्घदीर्घैव रेखा व्योम्नि व्यभाव्यत मायामरालोददृशे तेजस्तम्भस्य पार्श्वतः सन्ध्यापयोधराभ्यर्न चारीवरजनीकरः प्रागात्यागादुत्पततां ततोध्वानं पयोमुचां विमानपदवीं पश्चात् तारावर्तं ततः परम् तेजसाम्यानि धामानि ह्यत्युच्चान्नर्ध्वचारिणाम् अतिचक्रामवेगेन तान्यसौ कुहनाखगः मरुतो मनसो वापि जवः सूक्ष्मतराकृतेः सोऽभूदथः कृतस्तेन हंसेन गमनादिना यथा यथा चोत्पपात सुदूरं शमितच्छदः तथा तथा च ददृशे तेजस्तम्भः समुन्नतः अतीत्यमरुतां स्कन्धान् सप्त सम्प्राप्त विस्मयः बिभेदाण्डकटाहं च ज्वलन्तं तमुदैक्षत कथं वा दृष्टमूलस्य स्थातव्यं पुरतो हरेः अविमोचयतः शौरेः असमासमशीर्षताम् अनिर्व्यूढप्रतिज्ञस्य दीर्घै किं वा ममासुभिः तदत्रौपयिकं किं स्यात् कार्यं का वा गतिर्मम अधिसन्धित्सतो विष्णुं कः सहायो भविष्यति आर्जवं नैव निर्जेतुं प्रतिवादिनमक्षमः छद्मनावातिरस्कुर्यान् मानो हि महतां धनम् इति सञ्चिन्तयत्येव विरिञ्जो व्याकुलात्मनि आकाशे ददृशे नाति दूरे किमपि निर्मलम् ऐन्दवी किमयं रेखा तस्या कथमिहागमः यद्वा मृणालं तत्सिन्धौ वियत्यस्यां कुतस्तु सः इति तस्मिन् ससन्देहे नेदीयस्तं तदागतम् अबोधिकेतकीवर्हम् इति राजीवजन्मना तत्पर्जुषितमप्युद्यत् सौरभं वस्तु शक्तितः हिरण्यगर्भो विमलम् अगृह्णात्केतकच्छदम् गृहीतमात्रम् तेनैतद् स चैतन्यम् किलाब्रवीत् केतक उवाच भागृह्णासि किमर्थे त्वम् मुञ्च माम् विश्रमोद्यतम् वर्षाणाम् शतसाहस्रम् उत्पत्यैवम् विहायसा नन्दीश उवाच तथा समेधमानं तम् दृष्ट्वा शममखिद्यत अचिन्तयत् पद्मसूति रत्यन्तं विहताशयः अनिर्व्यूढप्रतिज्ञावान् नीचतामतिसंश्रितः आक्रान्तरोदो विवर क्वराशिस्तेजसामसौ अहमेतत्परीक्षायाम् क्व परिच्छिन्न पौरुषः भज्येते इव मे पक्षौ दृशा चान्धायते इव प्रध्वंसन्त इवाङ्गानि पदामीवाहमप्यथः किं मान्यद् बहुनोक्तेन सह निःश्वासवायुभिः मम प्राणाश्च नियताम् निर्गच्छन्तीव साम्प्रतम् अहङ्कारमतग्रन्थि रयम् त्रडतु चित्ततः मुकुन्देन सह स्पर्धा सा च शीघ्रम् प्रणश्यतु यदेष रोदः कुहर परिनाहाधिकोद्यमः औन्नत्यमयतोऽद्यापि तेजस्तम्भो यथा पुरा तदस्य तेजसाम् राशेर्नाहम् नारायणोऽथवा कारणम् दूरतश्चान्ये महेन्द्रप्रमुखासुराः इतो नोत्पतितुम् शक्ति रस्ति मे तन्निवर्तये इति निश्चित्य मनसा विधाता जातविस्मयः प्रत्यभाषत तम् कस्त्वम् कुतो वा प्राप्तवानिति स च प्रत्यब्रवीदेनम् वेधसं केतकच्छद एवासम् स चैतन्यः शिवाज्ञया तेजस्तम्भात्मनः शम्भो तस्य मूर्ध्नि चिरम् स्थितः भूलोक इच्छया वस्तुम् ततः सम्प्राप्तवानहम् इत्थम् श्रुत्वा केतकी बर्हवाचम् लब्ध्वा श्वासम् तम् किलाम् भोजभूतिः ब्रूहि त्वम् मे तत्कियत्यन्तरे वा तेजस्तम्भस्याग्रमित्यापभाषे इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्रम् संहितायाम् प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मणा लिङ्गोपरिभागशोधनवर्णनं नाम द्वादशोऽध्यायः अथ त्रयोदशोऽध्यायः नन्दिकेश्वर उवाच केतकी बर्हमप्येनम् विहस्य पुनरब्रवीत् केतक्युवाच अपि मूढन किञ्चित् त्वम् वेत्सि कस्त्वम् कुतो न तत् ईदृश्य परितो लग्ना यस्मिन् ब्रह्माण्डकोटयः तस्य प्रमाणमेतावत् इति को वेदितुम् क्षमः चतुर्युगायुतैर्यातम् ततो निपततो मम इदानीमपि नाप्नोति तन्मध्यम् किल भूतलम् इति ब्रुवाणमेनम् च नमस्कृत्य सरोजभूः हित्वा निजमहङ्कारम् अभाषत कृताञ्जलिः ब्रह्मोवाच महात्मन् सत्यमेवास्मिन् मूढोऽहम् केतकच्छद ब्रह्मणा हि मया स्पर्धा विष्णुना सह निर्मिता द्वाभ्यामपीदमावाभ्याम् विस्मृतम् शिव वैभवम् यन्नौ महानभूद्गर्व सर्गसन्त्राणमात्रतः ह्रेपणी सङ्कथा तावत् आस्तामद्याप्यहम् यत स्पर्धया न विमुक्तोऽस्मि बद्धया गरुडध्वजे सख्यम् साप्तपदीनम् हि कथ्यते तद्भवान् मयि असंस्तुत धियम् हित्वा कर्तुमर्हस्यनुग्रहम् अहम् विष्णुश्च मोहान्धौ तेजस्तम्भस्य वीक्षणात् हंसकोलाकृति दध्वो मिथः साम्यम् व्यपोहितुम् मूलम् दिदृक्षुः सदशाम् कीदृशीम् यातवानिति न जाने मम चास्याग्रम् दिदृक्षोरीदृशी दशा गतमुड्डीयमानस्य मे सहस्रेण हायनः जातश्रमोऽस्मि नितराम् वियुज्य इव चासुभिः दिष्ट्याद्यभद्रलब्धस्त्वम् मया लम्बोऽवसीदताम् तन्मे कुरुष्व मित्रस्य सफलां याचनामि माम् सखाहं सहसञ्जल्पाद् अस्मि दासोऽनुषज्जनान् तत्त्वया करणीयैवम् प्रार्थनैषा कृताञ्जलिः यदि पश्यति मूलं स जितोऽहममुना तदा यद्वा न पश्यति तदा यस्मिन् साम्यमुपेयिवान् इदं द्वयमपि प्रायो ममातिह्रेपणं सखे त्वयैव परिहार्यत्वम् इदानीं समुपागतम् अनृतामभिभाषत्वम् उचितां च सुहृत्कृते गिरमेकामि मामग्रे चक्रपाणेरुदीरय एष हंसाकृतिर्ब्रह्म तेजस्तम्भत्वरूपिणः अत्युच्चं दृष्टवानग्रम् अत्र साक्ष्ये स्थितोऽस्म्यहम् तेनापि तेजस्तम्भत्वम् एयुषा चन्द्रमौलिना सम्भावितोऽयं सुतराम् पित्रेव हि पितामहः अतोऽयमेवाप्यधिको भवतो विष्टरश्रवाः इत्युक्त्वा मम साहाय्यम् सुमहत्क्रियतां त्वया नन्दिकेशर उवाच एवं भूय प्रार्थितोऽयं विधात्रा दाक्षिण्यार्द्रः केतकी बर्हकोऽपि तेजस्तम्भाभ्यर्नभाजे तथैव प्राहाशेषं विष्णवे ब्रह्मवाक्यम् इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यं संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे ब्रह्मणा सत्यसाक्ष्यार्थं केतकच्छत प्रार्थनावर्णनं नाम त्रयोदशोऽध्यायः अथ चतुर्दशोऽध्यायः नन्दिकेश्वर उवाच सोऽपि ब्रह्माणमुद्वीक्ष्य तावताद्विगुणं स्मयन् नाग्रं दृष्टमनेनेति निश्चिकाय विवेकवान् अनुग्रहीतुं मां मुग्धं हन्तुं चास्य विधेर्मदं देवदेवः स एवालं भूतभर्त्येत्यमन्यत मूलसन्दर्शनाशक्त्या तेजस्तम्भस्य मे मदः व्यपेत एव मन्येद्य यद्भक्तिस्त्र्यम्बके जने तूयते वीतगर्वत्वात् स इदानीं महेश्वरः यस्य दक्षिणवामाभ्याम् अङ्गाभ्यां नौ समुद्भवौ अध्याप्यवीतगर्वत्वात् लब्ध्वा सौ कूटसाक्षिणम् हिरण्यगर्भो मामेव मतिसन्धातुमिच्छति तदद्य सकलस्यापि दुःखस्यापनये क्षमः स एव शरणत्वेन प्राप्तव्यः शङ्करो मया तथा कृतापराधस्य कृतघ्नस्य गुरुद्रुहः तमृते रक्षिता कोऽन्य स्तमेव स्तौमि शङ्करम् विष्णुरुवाच जय पृथ्वी मयाकार जय चापो मया कृते जय प्रभाकराकार जयामृतकराम् कृते जय वैश्वानराकार जय गन्ध वहाकृते जय होत्रमयाकार जयाकाशमया कृते रक्ष मां त्रिगुणातीत रक्ष मां कालविग्रह रक्ष मामक्षयैश्वर्य रक्ष मां करुणाकर स्रष्टा त्वं सर्वजगतां रक्षितां सर्वदेहिनां हर्ता च सर्वभूतानां त्वां विनैवास्ति कोऽपरः अणूनामप्यणीयांस्त्वं महांस्त्वं महतामपि अन्तर्बहिस्त्वमेवैतन् जगदाक्रम्य वर्तसे निगमास्तव निःश्वास विश्वं ते शिल्पवैभवं सत्त्वं त्वदीय एवासि ज्ञानमात्मा तव प्रभो अमरा दानवा दैत्या सिद्धा विद्याधरा नराः प्राणिनः पक्षिणः शैलाः शिखिनोऽपि त्वमेव हि स्वर्गस्त्वमपवर्गस्त्वं त्वमोङ्कारस्त्वमध्वरः त्वं योगस्त्वं परा संवित् किं त्वं न भवसीश्वर त्वमादिर्मध्यमन्तश्च तस्तुषां जग्मुषामपि कालस्वरूपतां प्राप्य कालयस्यखिलं जगत् परेशः परतः शास्ता सर्वानुग्राहकः शिवः स एष मे कथङ्कारं साक्षाद्भवति धूर्जटिः यं दृष्ट्वा शरणं प्राप्तो निःश्रेयसमवाप्नुयात् अथवा स्तौमि तद्धाम जातमात्रं यथा मति तच्छ्रुत्वैष कृपां कुर्यात् अवश्यं सर्वतः श्रुतिः इति निश्चित्य वैकुण्ठः स्तोतुं समुपचक्रमे तमेव तैजसं स्तम्भं प्रणम्य परमेश्वरम् आदिमध्यान्तरहितं मत्वा त्वं जगदीश्वरं हठात्तेन विरञ्जेन वार्यमाणोऽपि सस्मितं श्रीविष्णुरुवाच जय देव महादेव वामदेव वृषध्वज कालान्तकक्रदुध्वंसि नीलकण्ठेन्दुशेखर जय शम्भो शिवेशान सर्वं त्र्यम्बकधूर्जटे स्मर वैरिन् पुराराते स्थाणो भव महेश्वर जयेश खड्गपरशो शूलिन् पशुपते हर सर्वज्ञ भर्गभूतेश कपालिन् नीललोहित जय रुद्रमखाराते पिनाकिन् प्रमथाधिप गङ्गाधर व्योमकेश गिरीश परमेश्वर जय भीम मृगव्याथ कृत्तिवास कृपानिधे कृशानुरेत कैलासे नित्यमेव हि वर्तसे त्वदाज्ञया मरुद्वाति फणीवहति भूभरम् दीप्यतः सूर्यशशिनौ ब्रह्माण्डं प्लवतेऽम्बुधौ ज्योतींषि सञ्चरन्तेखे सर्वं त्वच्छासनात् प्रभो अहं ब्रह्माश्च जगतां सर्गं सन्त्राणयोरलं विधाय कल्पसे पुष्ट्यै सूतसस्यानि मेदिनि नाक्रामन्द्यब्धयः सीमां यच्च त्वन्महिरेवसः अणिमादिमहासिद्धि निःसाधारणवैभवः कथं त्वाममरैरन्ये रुपेक्षे समभिष्टुतम् विशुक्त्वे विस्मरामस्त्वां स्मरामः सङ्कटेऽपि च नरोषो जातु भक्तेषु प्रसादः सर्वदैवते यदा विधित्सोर्भक्तित्वं यदा च प्रावृणोषिताम् मोहबोधौ तदा पुंसाम् कल्पेते बन्धमोक्षयोः इति स्तुतः साञ्जलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना कृतापहासे च सरोजसम्भवे मदोद्धते प्रादुरभूद्दयानिति इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्थे शङ्करप्रादुर्भाववर्णनं नाम चतुर्दशोऽध्यायः। अथ पञ्चदशोऽध्यायः नन्दिकेश्वर उवाच तेजस्तम्भं विनिर्भिद्य सन्ध्याभ्रमिव चन्द्रमाः कैलासकूटधवलं वृषेन्द्रमथितस्थिवान् जटाजूटवता बाल चन्द्रचूडेन मौलिना कपालमालिकां वैधीं स्रजं चारग्वधीं दधत् नागकुण्डलिभिफाल फलकोद्भासिलोचनैः पञ्जभिर्वदनैर्दीप्तैः श्वेतकल्माषकन्धरैः शूलं कपालं डमरुं सारङ्गं परशुं धनुः खड्वाङ्गममलं खड्गं दोर्भिर्नागाञ्च धारयन् श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान् सर्वालङ्कारसम्पन्नः सर्वदेवैरभिष्टुतः परिधानीकृतं व्याघ्र चर्माताभ्यामदर्शि सः रूपं दृष्ट्वा सहानन्दं ननर्तनलिनेक्षणः न किञ्चिदपि जानानो मुमोह च सरोजभूः दृशाभिनन्द्य माधवं प्रसन्नया महेश्वर अथो ददिष्ट पञ्चतं सहुङ्क्रियश्चतुर्मुखं जगात चाधिकारितामदाद्युवां समुद्धतौ न लज्जितं यमत्र वामयं क्रमोऽधिकारिणां परीक्ष्य वैभवं मम प्रबोधवानभूधरि अयं न जातु पद्मभु छलन्मनो दुरात्मवान् अशासि पञ्चवक्त्रता यदोपहासितो ह्यहं पुनः स्वपुत्रिकारतिर्मयैष शिक्षितोऽभवद् तृतीय एष मन्दुरप्यहो कथं नु सह्यते तदस्य तु प्रतिष्ठया क्वचिन्न भूयतां विधे अथं च केतगच्छदो यदापकूट साक्षिताम् अतः परं न जातु तन् ममैतु मूर्ध्नि संस्थितम् शप्त्वैव मेतौ गिरिश प्रीत्या विष्णुमभाषत श्रीमहेश्वर उवाच वत्समाभै प्रसन्नोऽस्मि भवते भक्तिशालिने ननु त्वमङ्गान्मे जात सात्विकोऽसि विशेषतः माहेश्वराग्रगण्योऽसि जगत्यां हि यथा पुरा न तवातः परं जातु भक्तिहानिर्भवेन्मयि प्रतिक्षणं वर्धमाना कल्पते च विमुक्तये इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजिनिरहङ्क्रिये हरौ भीतिमानवनतः स्वयं विधि स्तोतुमारभत क्लृप्तवन्दनः इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे श्री अरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मकृतशिवस्तुत्युद्यमवर्णनं नाम पञ्चदशोऽध्यायः
अथ षोडशोऽध्यायः
स्तव मनुष्यप्रसादेन
ब्रह्मविष्णुभ्यां वरप्रदानं शिवाज्ञया अरुणाचलेशमन्दिर निर्माणम् ब्रह्मोवाच
देवदेव तवैश्वर्यं केन शक्येत वेदितुं विना भाग्यैत्यसुलभं भवदीयमनुग्रहम् अकर्तृकाणि वाक्यानि ऐश्वर्यन्ते निरत्ययं न स्तोतुं शक्यते किन्नु नमस्कुर्वन्ति दूरतः को विष्णु को ममेदेव दिक्पाला वासवादयः
त्वमेव देव
कर्तासि जगत्सृजनरक्षयोः पतिस्त्वम् पार्वतीनाथ
पशवो वयमप्यमि बद्धुम् पाशेन मोक्तुम् वा त्वमेवास्मान् प्रगल्भते षड्विंशत्तत्त्वरूपस्त्वम् अभिदश्चाभिवर्तसे को विदः को निर्णेतुम् तव याथात्मनीश्वरः किरातः किरदेवस्त्वम् सारमेयैः किलागमैः षड्वर्गहिंस्रान् संहर्तुम् करोषाखेटकौतमम् देवलक्षाध्वरे पूर्वम् वीरभद्रस्वदाज्ञया
काङ्काम् शिक्षामकाशीन्न इति कापि विडम्बना
तव कालाग्निरूपस्य सर्वब्रह्माण्डदाहिनः पोषणात् पुष्पचापस्य प्रायो जिह्रेतिषेऽनुषी कृतापराधः शूलेन त्वया जीर्णो जलन्धरः अन्तकोऽन्धकर इत्यश्च प्रतिवीरश्च कोऽस्तिते अधारयिष्यत् कण्ठेन कालकूटम् न चेद्भवान् कथञ्चरारयिष्यामो वयम् सर्वेऽपि जीवितम् देवदारुवने पूर्वम् मुनीन् केवलकर्मठान् प्रक्षोभ्यधूर्तवेशसत्वम् दययान्वग्रहीस्तथा अङ्घ्रिणाक्रान्तवान् नो चेद अत्युग्राम् त्वमपस्मृतिम्
तया क्रान्तमिदम्
कृत्स्नम् अन्धकाराय ते जगत् अर्धनारीश्वरम्
रूपम् त्वया चेन्न प्रकाशितम्
प्रभवामि कथम् स्रष्टुम् जगदेतच्चराचरम् भवता स्तम्भितः शम्भो संरम्भाज्यम् यद्भुजः कियन्तम् हन्तकालन्ते
जयस्तम्भस्तिथः भिक्षोः कपालमापूर्य
रुधिरेणात्मनो हरिः शूलेनोक्षिप्य मुमुहे
ह्येतत्त्वमधारय
ह्येतत्त्वमधारय न चेदशिक्षय सर्व शस्त्रास्त्राण्यनुकम्पया निर्वापयेत् कथम् वयम् क्रुद्धोऽपि जमदग्निभूः ग्रहयम् शरभाकारः समहाशीर्न चेद्भवान् स एव संहरेद्विश्वम् हिरण्यकशिपोरपि
त्वमाचक्षः कल्पाब्धौ
कैवर्तो मत्स्यकच्छपौ हरिम् बद्धा विराट्सूत्रैः दृशिम्भसूकरम् एकोणे पद्मसाहस्रे
स्वनेत्रेण
कृतार्चनम् शूलिन् सुदर्शनम् दत्त्वा दैत्यन् विषमतूतुषः नन्दिकेश्वर उवाच सुत्यैवमस्य
विष्णोश्च
प्रार्थनेन प्रसेदिवान् दुर्जटिसृष्टिकर्तृत्वम् पुनरस्याभ्यमन्यत समद्यासुविजानाम् च पूजनम् चानुशिष्टवान् उभावप्यब्रवीदेतौ वात्सल्याश्चन्द्रशेखरः श्रीशिव उवाच
वत्सव्युवाम्
न ज्ञात्वैवम् भूयो भवतमुद्धतौ गुरुम् स्मरन्तम् वामेव जाग्रतम् सृष्टिरक्षयोः
इह प्रदेशे युवयोः
यन्मयानुग्रहः कृतः पुण्यक्षेत्रमिदम् पुंसाम् ततो मोक्षाय कल्पताम् योजनत्रयमात्रेऽस्मिन् क्षेत्रे निवसताम् नृणाम् दीक्षादिकम् विनाप्यस्तो मत्सायुज्यम् ममाज्ञयाम् यद्वा तिरक्षाप्यत्र स्थावराणाम् च देहिनाम् अबुद्धिपूर्विका बुद्धि अपवर्गस्य जायताम् नृणाम् च दर्शनाद्दूरे कैवल्यम् स्मरणेन वा अस्तु वेदान्तविज्ञानम् न साध्यम् निष्प्रयासतः शुभाय तैजसीमूर्तिः स्थावरामशाश्वती अरुणा दृढतिख्याता नित्यमेवात्र वर्तताम् युगात्यये विनयनन्तो मज्जये दुर्महाभ्ययः न चालये युर्मरुतो न दहेयुश्च वह्नयः ज्योतिर्मयमिदम् लिङ्गम् ज्योतिष्वपि न जातुचित् क्रमन्ताम् निर्गमागत्य
खेचराणि
समन्ततः यस्यानुग्रहमिच्छामि जन्तोस्तस्यात्र सम्भवः
देहान्ते कल्पताम् मुख्यै विनौ पनिषदि गिरः
एष दूरात् प्रणामेन निकर्षाच्च प्रदक्षिणात् अपि पापात्मनाम् पुंसाम् अस्तु निःश्रेयसप्रदः अत्रैव नियतम् वासाः सम्भवन्ति महात्मनाम् तस्मात्स्थलमिदम् हित्वा न गन्तव्यम् कदाचन शोणाचलमनाधृत्य क्वचित् छित्त्वापि मुक्तये
तस्माद्युवाम् विहरि
वसतम् चात्र नित्यशः नन्दिकेश्वर उवाच इत्युक्तवन्तम् कामायम् प्रणम्यधिमाधवौ तौ विज्ञापयताम् देवम् दूरीभवदम्
क्रियौ
विधिमावाचतो एवमेतज्जगदाधार
जगदाधार
एवमेतज्जगदाधार
जगदाधारतः
आस्ताम् वीरसौ किन्तु तेजोऽयस्य सुसहम् अतोऽयमुत्तमो रुद्र तेजः सामान्यशैलवद तिष्ठत्वभेद्यमहिमा निःश्रेयसमहाखनिः
विवृणोति
निजम् ज्योतिः विश्वस्यास्य मृद्धये प्रत्यग्रम् कार्तिके मासि कृत्तिकासुविनाद्यये तावकारयताम् शर्मदोऽपि नृणाम् देव शोणाद्रिस्तवशासनात् महत्त्वादर्पितुम् शक्यो न
स्याद्भक्तस्य
कस्यचित् एतस्योपत्यकायाम् तद्
अद्यारभ्यास्मदर्थनात्
दर्थनात् देवेन सन्निधातव्य अवन्याम् लिङ्गरूपिणा दच्चारुण दच्चारुण गिरीशा तच्चारुणगिरीशानाम्
आवामाराधयामहे
अभिषेकानुलेपाद्यैः उपचारे यथाविः
सन्त्यत्र
केशराश्च्यूत नागपुन्नागकेसराः
आरग्वधाः कुरवका मालूरा पाटला अपि
अत्रैव सन्निधातव्यम् देवदेवदयानिधे
यतस्तद्भक्तिदार्ढ्यम् नौ भवतात्वपासनात्
नान्यथा चित्तशुद्धिर्नौ देवेत्येवम् प्रसेदुषे
अनाद्यविद्याविषये
यो भविष्यति नित्यशः शोणाद्रेः पूर्वदिग्भागे स
एषमुन्नतः
स एवालम् निवासाय देवस्य हृदयङ्गमः साङ्गवेदा धर्मशास्त्रम् पुराणानि शिवागमाः
कृत्वा च सकला
प्रोक्ता भवैव भवावयोः निःश्रेयसाय भक्तानाम् वयैव गुरुरूपिणाम्
अष्टाविंशतिराख्यात
आगमाश्यैव संज्ञिताः तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनम् कदाप्यज्ञायामार्ति
नाधिगच्छाव
शङ्करान् अनिकेश्वर उवाच इति तौ धातृगोविन्दौ पादपद्मावलम्बिनम् जगादकरुणामूर्तिः जगति भृत्सुता पतिः श्रीमहादेव उवाच युक्तमुक्तमिदम्
भद्रौ
मयाप्येवम् मनीषितम् कामिकोक्तेन मार्गेण मामर्चयितुमर्हतः मोहतो विस्मृता मन्ये भवद्भ्याम्
देवसंहिता
अधुना मत्प्रसादेन
पुनर्भासताम्
हृदि नन्दीश उवाच
इत्युक्त्वा श्रीशवागीशौ
गिरीशोऽन्तरधादः
तदा
प्रादुरभूत् तत्र लिङ्गम् किमपि मङ्गलम् तच्चावलोक्य
साश्चर्यौ
मुकुन्दकमलासनौ मुहुः प्रणम्य सानन्दम्
प्रार्थ्य
प्रार्थ्य
तुष्टुवतस्थिरम्
चिरम्
तुष्टुवतुश्चिरम्
गिरिनाथस्य चादयम्
नानाशिल्पाद्भुतम्
विश्वकर्मणा प्रचयेन च
खानयामास
खानयामासतस्तत्र सरक्किमपि पावनम्
अभिषेकाय देवस्य सर्वतीर्थमयम् नवम् अरुणाक्षम् पुरम् जारात कल्पयामास तुष्टिरम् सिद्ध्यै नो कण्ठते लब्ध्वा कैलासायापि
भूर्जटे तस्याम् ब्रह्मर्षयो देव
गन्धर्वायोषितः
सिद्धविद्याधरा
यक्षाः पौरत्वम् समुपाययोः तीर्थानि धार्य
कूपत्वम्
गङ्गाद्या सरितस्तथा नन्दनादीनि च वनान्यवन्निष्कुटत्वतः गोलोको गोगोष्ठतया नैगमत्वम् किलागमाः शैलाश्च गोपुरादित्वम्
स्मृतयो
विधियाञ्जयोः भूता प्रेता पिशाचाश्च वेतालाः कटपूतनाः प्रपन्ना मानुषम् देहम् तस्याम् किल पृथग् जनाः देवोऽपि भोजटिस्तस्याम्
कौतुको सिद्धरूपधृक कौतुकी कौतुको
कौतुकी
सिद्धरूपधृक योगित्वम् समुपास्थाय मात्रा कौपीन मुण्डधृक न केन किदभिज्ञातः सदा सर्वत्र दीप्यति तौ च केशव लोकेशौ जटिलौ
भस्मकुण्ठितौ
दान्तौ शोणाद्विनाथम् तम् अर्चयामासतुश्चिरम् तत्रत्यानाञ्च सर्वेषाम् वर्णानाम्
आनुगुण्यतः
दीक्षादिकानि चक्रादे स्वयमार्जायताम्
स्वयमाचार्यताम्
गतौ
श्रमेणाल्यौ
सर्वागमरभो निधौ प्रातः स्नात्वा
समाहृत्य
पुष्पपत्रादिकम् फलम् मन्त्रम् चारुणनाथस्य तत एव रहस्यम् जञ्जल्पाकौजयपदोः सर्वमन्त्राधिकम् सदा धूपप्रदीपनैवेद्यैः गीतवादित्रनर्तनैः प्रदक्षिणा नमस्कारैः मुद्रावन्दैः नवर्णनैः आसनेन च मूर्चा च मूलेन यथाभिः
पञ्चब्रह्मरङ्गाद्यैः
अर्चयामासतुशिवम् एवम् वर्षसहस्राणि षोडशारुणशङ्करम्
वेधो
विष्णु समाराध्य शिवज्ञानमवापतुः
इतीयमयादिमया रहस्यम्
ऋतुशिलादस्य मुखात्पुरायतरम् निवेदितम्
चाभमदेव तुभ्यम् किमन्यदाकर्णयितुम्
मनीषा इति श्रीस्कान्दे महापुराणे एकाशीतिसहस्र्याम् संहितायाम् प्रथमे माहेश्वरखण्डे अरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्णुकृतारुणचलेश मन्दिरवर्णनम् नाम षोडशोऽध्यायः।